आदिदेवनमस्तुभ्यं प्रसीद मम भास्करं दिवाकरनमस्तुभ्यं प्रभाकरनमोऽस्तुते सप्ताश्वरधमारूढं प्रचंडं कश्यपात्मजं श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम्। लोहितं रथमारूढं सर्वलोकपितामहं महापापहरं देवं तं सूर्यं प्रणमाम्यहम्। त्रैगुण्यं च महाशूरं ब्रह्म विष्णुमहेश्वरं महापापहरं देवं तं सूर्यं प्रणमाम्यहम्। बृंहितं तेजसां पुञ्जं वायुराकाशमेव च प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम्। बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितम् एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम्। विश्वेशं विश्वकर्तारं महातेजःप्रदीपनं महापापहरं देवं तं सूर्यं प्रणमाम्यहम्। तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदं महापापहरं देवं तं सूर्यं प्रणमाम्यहम्। सूर्याष्टकं पठेन्नित्यं ग्रहपीडाप्रणाशनम् अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत्। आमिक्षं मधुपानं च यः करोति रवेर्दिने सप्तजन्म भवेद् रोगी जन्म जन्म दरिद्रता। स्त्रीतैलमधुमांशानि ये त्यजन्ति रवेर्धिने न व्याधिशोकदारिद्र्यं सूर्यलोकं च गच्छति। नव्याधिशोकदारिद्र्यं सूर्यलोकं च गच्छति।